स्तवनम्। गजवदनमचिन्त्यं तीक्ष्णदन्तं त्रिनेत्रं बृहदुदरविशेषं भूतराजं पुराणम् अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि। शिवतनयवरिष्ठं सर्वकल्याणमूर्तिं परशुकमलहस्तं शोभितं मोदकेन तरुणकुसुममालं व्याललम्बोदरं च मम हृदयनिवासं श्रीगणेशं नमामि। विमलकनकवर्णं पूर्णलक्ष्मीप्रदानं गजमुखकरुणाक्षं चञ्चलं कर्णयुग्मम् अभयवरदहस्तं इक्षुपाशाम्पुषाढ्यं वरपतिगणमीशं श्रीगणेशं नमामि। विबुधमयसुशीलं पद्मकोशावकाशं वरवरदविचित्रं ध्यानपात्रं पवित्रं प्रणवपदनिवासं दुःखदारिद्र्यनाशं सकलसुरविलासं श्रीगणेशं नमामि।